अस्माकं प्रवर्तमानविषयः अस्ति त्वान्तरूपं क्रियापदानां त्वान्तरूपम् अपि ल्यबन्तरूपम् उपसर्गरहितक्रियापदानं त्वान्तरूपम् अपि उपसर्गसहितक्रियापदानं ल्यबन्तरूपं तत्र त्वा प्रत्ययः अस्ति उपसर्गरहित धातोः अपि इदानीं तत्र उपसर्गसहित धातुः अस्ति चेत् तत्र ल्यप् प्रत्ययः इति भवति धातुयोगः ल्यप् प्रत्ययः पदं भवति तद् ल्यबन्तपदम् इति नामकरणं भवति अस्तु अतः अस्माकं योजना कार्यक्रमः अद्यतनकार्यक्रमः एषः अस्ति तत्र प्रथमतया किञ्चित् ल्यबन्तरूपस्य पुनःस्मरणम् अपि किञ्चित् अभ्यासं तदनन्तरं धातोः गणाः सन्ति दशगणाः सन्ति इति तत्र सरलरीत्या तत्र प्रतिपादनमस्ति स्वरूपमहोदयस्य तत्र जालपुटे अस्ति तद् अहम् ईमेल् द्वारा प्रेषितवान् तत्र लिङ्क् तद् पठामः तदपि संस्कृतस्य अभ्यासः भवति अपि नूतनविषयः अपि वयं ज्ञातुं शक्नुमः इति चिन्तनं पश्यामः यावत् कर्तुं शक्नुमः नो चेत् अग्रिमवर्गे एतत् आरम्भं कर्तुं शक्नुमः अस्तु मधुसूदन मोदी नमस्कारः रघुपति मोदी हा शुभा भगिनी नमस्कारः अस्तु तर्हि तत्र त्वान्तरूपम् अपि ल्यबन्तरूपं तत्र गतवर्गे वयम् एतत् सम्भाषणं पठितवन्तः पेज् 134 मध्ये पुनः एकवारं पठित्वा तत्र पङ्क्तिशः पश्यामः पेज् 134 मध्ये तत्र अद्य के कुर्वन्ति तत्र उषा भगिनी अपि उमा मीनाक्षी भगिनी कुर्वन्ति वा अस्तु एकः धृतराष्ट्र अन्यः
सञ्जय ओके धृतराष्ट्रः अवलोक्य विश्वरूपम् एतत् सम्भाषणम् उच्चैः पठत जानीत लप् प्रत्ययान्तानि धृतराष्ट्रः सञ्जय भगवतः विश्वरूपम् अवलोक्य अर्जुनः किम् अकरोत्
राजन् अत्यद्भुतं तत् स्वरूपं वीक्ष्य पार्थः अवेपत अञ्जलिं निबध्य भीतभीतः सः कृष्णं प्रणम्य सगद्गदम् अवदत्
सञ्जय भगवन्तं संसृत्य पार्थः किम् अवदत्
महाराज कृष्णः चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान् साधु नास्ति अदृष्टपूर्वं रूपम् अवेक्ष्य भीतः सः कृष्णं चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान् हे राजन् हरेः तत् अद्भुतं रूपं संस्मृत्य हृष्यामि यत्र योगेश्वरः कृष्णः तथा धनुर्धरः पार्थः च भवति तत्र विजयः धर्मः च भवति इति अहं मन्ये
सञ्जय गीतोपदेशं निशम्य नष्टमोहः पार्थः अन्ये पाण्डवाः च किं कृतवन्तः
राजन् तदनन्तरम् अर्जुनः भूमौ स्थितं गाण्डीवं स्वीकृत्य धृतवान् गाण्डीवधरं पार्थं सन्दृश्य सर्वे तत्र आगत्य स्थिताः युधिष्ठिरः स्वस्य कवचं विसृज्य वरायुधं निक्षिप्य रथात् अवरुह्य पद्भ्यामेव पितामहम् अभिप्रेक्ष्य अगच्छत् अन्येऽपि राजानः तम् अनुसृत्य गतवन्तः
धन्यवादः अस्तु समाप्तम् धन्यवादः सरला भगिनी नमस्कारः वंशिष्ठ भगिनी नमस्कारः
नमस्ते महोदय नमस्ते
अस्तु तर्हि पङ्क्तिशः पश्यामः तत्र कः वक्तुम् इच्छति तत्र गीताञ्जलि भगिनी किञ्चित् वदति वा
आं महोदय अहं प्रयत्नं करोमि एतत् सम्भाषणम् उच्चैः पठस जानीत धृतराष्ट्रः सञ्जय इति सम्बोधनरूपम् एकवचन अकारान्त अस्ति चेत् भगवतः विश्वरूपम् अवलोक्य अर्जुनः किम् अकरोत् भवतः इति भवत् प्रत्ययस्य षष्टि एकवचनरूपं विश्वरूपम् अवलोक्य विश्वरूपम् इति कर्मपदम् अवलोक्य इति ल्यवन्त अव इति उपसर्ग लोक्य अर्जुनः किम् अकरोत् अर्जुनः इति कर्ता कर्तृपदं किम् अकरोत् अकरोत् इति ल्यवन्त लङ्लकारं लङ्लकार एकवचन
प्रथमपुरुष समीचीनं भगिनि अस्तु अवलोक्य इत्युक्ते दृष्ट्वा इति अर्थे
अवलोकनं कृत्वा
तत्र आलोक्य वा अवलोक्य वा
हा तत्र आलोक्य इति पुरातन पुस्तके मम पुस्तके अपि तदेव अस्ति किन्तु नूतन मुद्रणे अवलोक्य इति अस्ति भगिनि
समान एव महोदय
तत्र अवलोक्य इति स्वीकृतं तत्र अर्थसमानमेव
किन्तु रूपं भिन्नं महोदय
तत्रापि तत्रापि उपसर्गः अस्ति तत्र आलोकय अत्र अत्र अवलोकय किन्तु द्वयमपि दृष्ट्वा इति अर्थे एव अस्ति इति मन्ये
अग्रिमं पठामि महोदय सञ्जयः राजन् अति अद्भुतं तत् स्वरूपं वीक्ष्य पार्थः अवेपत अत्र अति अद्भुत अति यकार आगच्छति यण्सन्धि अत्र अति अद्भुतं स्वरूपं विशेषणं विशेष्यभाव अत्र
तत्र स्वरूपम् इति पदस्य विशेषणम् अस्ति अद्भुतम् अति अद्भुतम् अत्यद्भुतम् इति विशेषणं भवति स्वरूपं प्रति समीचीनं भगिनि तद् भवति कर्मपदं वीक्ष्य इति क्रियासूचकस्य
वीक्ष्य इति अपि यबन्त ईक्ष अपि च दृष्ट्वा समान एव किन्तु वियोग ईक्ष अत्र महोदय तत् अपि विशेषणम् अस्ति स्वरूपस्य
सत्यं सत्यं तत् अपि विशेषणम् अस्ति समीचीनं भगिनि सत्यं
पार्थ इति कर्तृपदम् अवेपत इत्युक्ते आत्मनेपदी प्रथमपुरुष एकवचनरूपम् इत्युक्ते कम्पते
समीचीनं भगिनि
अवेपत अपि लङ्
लङ्लकारं समीचीनं
लङ्लकारं अञ्जलिं निबध्य भीतभीतः सः कृष्णं प्रणम्य सगद्गदम् अवदत् अञ्जलिं निबध्य किं निबध्य अञ्जलिं निबध्य निबध्य इति अपि ल्यवन्तरूपं नि योगः बध्नाति
इति
लट्ठ
वयं दृष्टवन्तः खलु तत्र त्वान्तरूपे अपि क्रियापदं क्रियापदद्वयं भवितुम् अर्हति यस्य त्वान्तरूपम् एकमेव अस्ति, तादृशं भवति खलु? तत्र क्रियापदमस्ति चेत् तत्र तस्य त्वान्तरूपं कर्तुं शक्नुमः, किन्तु यदि त्वान्तरूपमेव दत्तम् अस्ति चेत् तत्र केवलम् एकमेव क्रियापदम् इति वक्तुं न शक्नुमः. तत्र यथा वयं दृष्टवन्तः तत्र एतत् अस्तु, उदाहरणार्थं तत्र करोति इति अस्ति, अपि कुरुते इति अस्ति. कृ धातुः आत्मनिपदि उभयपदि धातुः अस्ति. अस्तु, तत् अतः करोति इति तस्य त्वान्तरूपं किम्? करोति, करोति इति पदस्य त्वान्तरूपं जानाति एव,
कृत्वा.
कुरुते इति क्रियापदस्य त्वान्तरूपं किम् अस्ति?
समानैव,
धातु एकमेव अस्ति त्वान्तम्. अतः यदि कृत्वा इति पदमस्ति तत्र न जानीमः तद् करोति इति आसीत् वा अथवा कुरुते इति आसीत्. अतः तत्र तत्र निबध्नाति इति प्रायशः तद् भवितुमर्हति, अन्यत् अपि भवितुमर्हति, किन्तु एकं स्वीकुर्मः तावदेव.
निबध्य भीतः भीतः इति सः पुंलिङ्ग् शत्र रूपम् अस्ति. भीतः सः शत्रुरूपं
नास्ति इति मन्ये. तत्र पठन् इति तादृश नास्ति,
भीत इति एकं विशेषणम् अस्ति महोदय. अस्तु, विशेषणमेव. भीतः सः कृष्णं प्रणम्य, कृष्णमिति कर्मपदं, प्रणम्य इति प्रयोगनं धातु, ल्यवन्तपदं रूपं, स गद्गदम् अवदत्. गद्गदम् इति क्रियापदं विशेषणमस्ति.
समीचीनं भगिनि. तत्र तदपि पेपते इति तादृश अर्थे एव खलु, तत्र ट्रेम्ब्लिङ्ग् इति गद्गदम् इति गद्गदम् अवदत् तादृश वाणी आसीत् तस्य. समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रे शोभा भगिनी प्रयत्नं करोति वा?
आं महोदय. धृतराष्ट्रः सञ्जय भगवन्तं संस्तुत्य पार्थः किम् अवदत्? तत्र भगवन्तं कर्मपदं, संस्तुत्य सम् उपसर्गपूर्वक स्तुत्य लेबन्तं, तत्र तत्तु स्तौति इति लट् लकाररूपस्य लेबन्तं.
समीचीनं भगिनि. किन्तु रूपम् अस्ति, क्रियापदरूपम् अस्ति स्तौति इति अर्थे.
पार्थः किम् अवदत् लङ्काकारे सञ्जयः महाराज अदृष्टपूर्वं रूपम् अदृष्टपूर्वम्
इत्युक्ते तत्र यद्रूपम्
इति अस्ति चेत् यत् सः दृष्टवान्, किन्तु अदृष्टपूर्वं सः कदापि न दृष्टवान् तादृशं रूपम्.
अतः सत्यं भगिनि, तत्र
अदृष्टपूर्वं
पूर्वम् अदृष्टम् इति अदृष्टपूर्वं
तत्र विशेषविशेषणम् अदृष्टपूर्वं रूपं
समीचीनम्.
अवेक्ष्य तत्र लेबन्तरूपं वीक्षते इत्यस्य तत्र अपि अवीक्ष्य अवेक्ष्य भीतः तत्र अवेक्ष्य
वीक्ष्य इति तादृश अर्थे एव अस्ति, किन्तु प्रायशः तत्र अवलोक्यते इति समानार्थ समीचीनं अव एव उपसर्गप्रायश तत्र ईक्ष्यते अवेक्ष्यते इति.
अस्तु. भीतः सः कृष्णं चतुर्भुजं रूपं दर्शयितुं प्रार्थितवान्. कृष्णं कर्मपदं चतुर्भुजं रूपं विशेषविशेषणं दर्शयितुं प्रार्थितवान् हे राजन्.
तत्र एकः विशेषः अस्ति, तत्र प्रार्थितवान् इति प्रार्थयति इति क्रियापदं तस्य विशेषः अस्ति, विशेषः अस्ति. कोऽपि जानाति वा तत्र प्रार्थयति इति? केचन धातवः सन्ति द्विकर्मकधातुः अस्ति. प्रार्थितवान् इति अस्ति. तत्र कर्मपदं द्वयमस्ति खलु भगिनि, शुभो भगिनि? तत्र सः प्रार्थितवान्
कृष्णं प्रार्थितवान्.
अतः कं प्रार्थितवान्? अपि किं प्रार्थितवान्
कृष्णं
किं चतुर्भुजं दर्शयितुम् प्रार्थना कृष्णस्य कृते कृतवान् एतत् प्रार्थना. अतः कृष्णं प्रार्थितवान् चतुर्भुजरूपं दर्शयितुं प्रार्थितवान् इति.
तत्र दर्शयितुं तुमुन् रूपं प्रार्थितवान्. हे राजन्, तत्र राजन् इति प्रातिपदिकम् एव अस्ति.
तत्र सम्बोधनमपि तादृश एव सम्बोधनमपि प्रातिपदिकं प्रायः तत्र समानम् अस्ति. तत् अकारान्तपदं नास्ति. महाराज इति अकारान्तपदम् अस्ति, किन्तु राजन् इति नकारान्तपदम् अस्ति.
प्रातिपदिकम् अपि च सम्बोधनरूपम्
अत्र समानम् अस्ति.
हरेः तत् अद्भुतं रूपं संस्मृत्य हृष्यामि. तत्र हरेः सम्बोधनरूपं हरिः इति.
हरेः
ओ क्षम्यतां, षष्ठीभक्ति. हरेः
समीचीनं.
हरेः तत् अद्भुतं रूपं, तत्र तत् अपि अद्भुतं, विशेषविशेषणम् अद्भुतम् इत्युक्ते अद्भुतं वयं जानीमः
रूपं
संस्मृत्य तत्र सम् उपसर्गपूर्वक स्मृत्य वारं वारं संस्मृत्य हृष्यामि. तत्र हर्षयति इत्यस्य उत्तमपुरुषे हृष्यामि इति
अनुभवामि.
यत्र योगेश्वरः कृष्णः तथा धनुर्धरः पार्थः च भवति तत्र विजयः धर्मं च भवतीति अहं मन्ये. तत्र यत्र योगेश्वरः कृष्णः तत्र विशेष्यविशेषणं तथा धनुर्धरः पार्थः विशेष्यविशेषणं च भवति तत्र विजयः धर्मः च भवति इति अहं मन्ये इति उक्तवान् सञ्जयः उक्तवान्.
समीचीनं भगिनि, धन्यवादः
महोदय. अत्र किमर्थं संस्मृत्य यदि
केवलम् एकवारम् इति न भगिनि, तत्र संस्मृत्य इति तत्र कृत्वा इति त्वान्त अपि ल्यबन्तस्य वयं जानीमः खलु. तत्र सः कृतवान् अथवा एतत् कृत्वा अहं गच्छामि इत्युक्ते तत् एकवारमेव अहं कृतवान् इति. अहं भोजनं कृत्वा गतवान् इति तत्र एकवारमेव कृतवान् खलु. किन्तु अत्र सः केवलम् एकवारं संस्मृत्य इति नास्ति, वारं वारं सः संस्मृत्य.
किन्तु तदेव मम प्रश्नः महोदय, यदि 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 भगवान्
प्रादेशिकभाषायाम् अस्ति खलु तदेव
सत्यं सत्यं. हा किन्तु तत्र तद् दृष्ट्वा दृष्ट्वा एतस्य मनसि योचनम् आयाति, अथवा किं किं चिन्तनम् आयाति, यत्र योगेश्वरः कृष्णः तद् स्मरणं कृत्वा कृत्वा तस्य मनसि परिवर्तनं भवति, एतत् चिन्तनं तस्य मनसि आगच्छति.
आम् महोदय, तत् अहम् अवगच्छामि. किन्तु मम प्रश्नः महोदय, यदि भगवान् साक्षात्
किन्तु तत्र सञ्जयः अस्ति खलु भगिनि, इदानीं यः वदन् अस्ति सः तु सञ्जयः.
किन्तु हरेः तत्
सः तु तस्य दिव्यचक्षुषा सः पश्यति, किन्तु सः साक्षात् तत्र नास्ति खलु कुरुक्षेत्रे.
संस्मृत्य संस्मृत्य हरिष्यामि इति कर्ता सञ्जय अत्र
सञ्जयः.
खलु
सञ्जयः सञ्जयः विवृणोति किं भवति कुरुक्षेत्रे इति खलु.
सत्यं महोदय, अहम् इति भ्रमा जाता कि
तत्र न अर्जुनः एतत् न वदति. अर्जुनः अर्जुनः कथं वदति पार्थः इति खलु, सः वदति अहम् इति.
धन्यवादः.
तत्र सञ्जयः वदति, सञ्जयः तत्र दिव्यचक्षुषा यद् पश्यति तद् वदति, अपि तस्य तस्य चिन्तनमपि वदति, एतद् अहं मन्ये इति. धृतराष्ट्रं प्रति अस्तु. अग्रे वंशीसुद्ध भगिनी प्रयत्नं करोति वा अग्रे.
क्षम्यतां महोदय, पुटसङ्ख्या कः?
134 महोदय, 134.
धृतराष्ट्रः सञ्जय गीतोपदेशं निशम्य नष्टमोह पार्थः अन्ये पाण्डवाः च किं कृतवन्तः? तत्र धृतराष्ट्र उक्तवान् सञ्जयः सम्बोधनं कृत्वा सञ्जनस्य सम्बोधनं कृत्वा गीतोपदेशं निशम्य, गीतोपदेशम् इति कर्मपदमस्ति, निशम्य इत्युक्ते शमयति वा धातु तत्र महोदय?
तादृशधातु, किन्तु शमयति इति अर्थः एकमस्ति शान्त समाधानं कृत्वा इति, किन्तु अत्र निशमयति इति इत्युक्ते शृणोति अथवा तस्य प्रत्यक्षज्ञानं भवति इति, पर्सीव् इति पर्सीव् इति आङ्ग्लभाषायां वदामः, प्रत्यक्षज्ञानं तत्र इन्द्रियैः ज्ञानं भवति इति, चक्षुषा अथवा श्रोत्रेन्द्रियेण किमपि सः पश्यति अतः शृणोति, अत्र शृणोति इति
शृणोति इति अर्थः. इत्युक्ते गीतोपदेशं
श्रुत्वा इति
श्रुत्वा नष्टमोहः पार्थः, नष्टमोहः पार्थः तत्र पार्थः कर्तृप्रदमस्ति, तत्र विशेषणं नष्टमोहः विशेषणमस्ति, पार्थः विशेषणमस्ति. अन्ये पाण्डवाः किं कृतवन्तः
पार्थः तत्र च इति अस्ति, तस्य अर्थः कः तत्र?
पार्थः अपि पाण्डवाः अन्ये
सर्वे किं कृतवन्तः इति अपि समीचीनं भगिनि. अपि तत्र नष्टमोहः इत्युक्ते
नष्टमोहः इत्युक्ते मोहं यत् अर्जुनं विश्वरूपं दृष्ट्वा नष्टमोहं
तस्य पार्थस्य मोहः नष्टः, यस्य मोहः नष्टः सः नष्टमोहः इति बहुव्रीहि समासः खलु. न जानीमः इदानीं, किन्तु अत्र तत्र अपरपदप्राधान्यम् इति कृत्वा तत्र नष्टमोहः, यस्य मोहः नष्टः सः नष्टमोहः इति. अत्र पार्थ पार्थस्य विवरणम् अस्ति अत्र.
अग्रे पठामि भगिनि.
अग्रे अग्रे पठतु भगिनि.
सञ्जयः राजन् तदनन्तरम् अर्जुनः भूमौ स्थितं काण्डीवं स्वीकृत्य धृतवान्. तत्र सञ्जय उक्तवान् हे राजन् तत् अनन्तरम् अर्जुनं यत् भूमौ स्थितौ काण्डीवं स्वीकृत्य धृतवान् तत्र तत् अनन्तरं भवति तत्र जलाञ्चषं ते जष्वसन्धि भवति. अर्जुनः अर्जुनः भूमौ तत्र भूमौ सप्तमि विभक्तौ अस्ति. यत् स्थितं काण्डीवं स्वीकृत्य स्वीकृत्य इति लबन्तपदमस्ति. स्वीकरोति इति धातौ लबन्तपदमस्ति. धृतवान् तत्र तव तु प्रत्ययः अस्ति महोदय. अस्तु काण्डीवधरं पार्थं सदृश सर्वे तत्र आगत्य स्थिताः. काण्डीवधरं पार्थः तत्र विशेष विशेषभावः अस्ति. क्षम्यता पार्थम् अस्ति वा पार्थः अस्ति वा महोदय.
काण्डीवधरं पार्थं तत्र विशेषणं विशेषम् अस्ति चेत् तत्र समानविभक्ति.
आम् आं महोदय. मम मुद्रण सम्यक् नास्ति अतः
समीचीनं
सन्दृश्य दृष्ट्वा दृष्ट्वा
तत्र लबन्तपदमस्ति महोदय.
सन्दर्शयति किन्तु तत्र दृष्ट्वा इति अर्थे एव.
सः सः पश्यति इत्युक्ते पश्यति एव धातु अस्ति किल महोदय.
सः पश्यति इति न तत्र सर्वे
स उपसर्गः पश्यति धातु अस्ति वा महोदय.
तत्र तादृशम् अस्ति.
सः पश्यति इत्युक्ते सः उपसर्गः
न न तत्र सन्दर्शयति इति एव क्रियपदम् अस्ति.
ओ तत्र उपसर्गः नास्ति वा महोदय.
उपसर्गः अस्ति भगिनि किन्तु तत्र एतादृशरूपम् अस्ति क्रियपदस्य.
दृश्य लबन्तपदमेव अस्ति. सर्वे तत्र आगत्य
क्षम्यता महोदय. संयोगः दर्शयति वा
पश्यति
पश्यति
तत्र. तत्र दर्शयति अपि पश्यति तत्र अहं चिन्तयामि तत्र सम्पश्यति इति तत् तत् तत्तु प्रायशः न भवति इति मन्ये भगिनि. तत्र सम्पश्यति भवती उक्तवती खलु सम्पश्यति इति वा
उपसर्गः
उपसर्गः तु सम्मेव समीचीनं किन्तु तत्र तदनन्तरं
दृश्यते दृश्यते
अस्तु सन्दृश्यते सन्दृश्यते अपि भवितुम् अर्हति. हा तत्र यथा मया उक्तं पूर्वं तत्र आत्मने वा परस्मैपदे वा यदि उभयपदे धातुः अस्ति चेत् तत्र त्वान्तरूपं लवन्तरूपम् एकमेव भवति. अतः सम्यक्तया तत्र अहं न जानामि तत्र सन्दृश्यते इति रूपम् अस्ति वा आत्मनेपदीरूपम् अस्ति वा अथवा परस्मैपदीरूपम् अस्ति वा इति. प्रायशः आत्मनेपदी सन्दृश्यते इति तद् भवेत् दृष्ट्वा इति. अस्तु तद् पश्यामः अनन्तरं.
गाण्डीवधरं पार्थं सदृश्य सर्वे तत्र आगत्य स्थिताः. सर्वे तत्र आगत्य इति लबन्तपदमस्ति. आ उपसर्गपूर्वकः गच्छति इति धातु. स्थिताः स्थिताः इति किं रूपं भवति महोदय. स्थिताः
तत्र पठितवान् इति पठितः इति तत्र स्थिताः तादृश स्थितः किन्तु तत्र प्रायशः कर्त्रार्थे अस्ति. तत्र पठितम् इति कर्मणि अर्थे अस्ति अत्र कर्तृर्थे अस्ति. स्थितः सः स्थितः अस्ति सः आगतः सः आगतः सा आगता इति तादृश सः स्थितः ते सः स्थितः ते स्थिताः इति.
युधिष्ठिरः स्वस्य कवचं विसृज्य वरायुधं निक्षिप्य क्षिप्रं रथात् अवरुह्य पद्भ्यामेव पितामह अभिप्रेक्ष्य आगच्छत् युधिष्ठिर स्वस्य कवचं युधिष्ठिरः स्वस्य कवचं विसृज्य विसृज्य इत्युक्ते वि उपसर्गपूर्वः सृजति इति धातु वर्तते चिन्तयामि
तत्र विसर्जयति इति विसर्जयति इति रूपम् अस्ति तत्र विसर्जनं करोति इति विसर्ज प्रायश विसृज इति एव धातु प्रायश द्रष्टव्यमस्ति किन्तु क्रियापदरूपं विसर्जयति इति मन्ये
अर्थम् इत्युक्ते विसर्जनं कृत्वा तत्र वरायुक्तं निक्षिप्य इत्युक्ते सर्वान् आयुधं तान् निक्षिप्य इत्युक्ते क्षिपति सर्वान्
क्षिपति अथवा
क्षिप्रम् इत्युक्ते शीघ्रेण रथात् अवरूप्य इत्युक्ते अवरोहति इत्युक्ते युधिष्ठिरः अवरोहं कृत्वा तदा पद्भ्यामेव इत्युक्ते पादेन पादयोः एव पितामहम् अभिप्रेक्ष्य आगच्छत् पितामहम् अभिप्रेक्ष्य अपि लभन्तपदमस्ति अभि उपसर्गः ईक्षते इति चिन्तयामि महोदय ईक्षते आगच्छत्
तत्र प्रायशः उपसर्गद्वयम् अस्ति इति मन्ये भगिनि तत्र
अभियोगः
इति धातु इति धातु अतः अभियोगः प्र इति उपसर्गद्वयं उपसर्गद्वयं दृष्ट्वा इति एव अर्थः तत्रापि
अभिप्रेक्ष्य आगच्छत् इति लङ्लकारः
आगच्छत् तत्र ततः गच्छति सः पितामहं दृष्ट्वा सः गच्छति
अन्ये अपि राजनः तम् अनुसृत्य गतम्
तम् इति कं
राजन्
इति तत्र राजा इति एकवचने किन्तु बहुवचने राजानः इति अस्ति रूपम् राजन् इति नकारन्त प्रातिपदिकं
राजानः तम् अनुसृत्य इत्युक्ते युधिष्ठिरम् अनुसृत्य इति लबन्तपदमस्ति गतवन्तः तत्र धातु प्रत्ययः अस्ति बहुवचनरूपं गतवन्तः
समीचीनं भगिनि
वरायुद्धम् इत्युक्ते महोदय
तस्य आयुधं तस्य युधिष्ठिरस्य विशेष आयुधम् आसीत् वा अहं न जानामि तत्र विशेष आयुधम् आसीत् वा अथवा तत्र केवलम् आयुधम् इति मन्ये भगिनि तावदेव गदा आसीत् शीतल भगिनी नमस्कारः तत्र समस्या आसीत् वा SCC मध्ये किमर्थं भवती अपि पूर्णेन्दु महोदय गतवन्तः इदानीं पुनरागतवन्तः इति क्लेशः आसीत् वा समस्या आसीत् वा अस्तु 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 इदानीं कथम् अस्ति ध्वनिः अस्ति वा
मम
पार्श्वे ध्वनिः
नास्ति
अत्र सम्यक् एव अस्ति महोदय
शोभगिनी सम्यक् अस्तु
अत्रापि किमपि
सम्यक् अस्ति श्रीप्रिया भगिनी
सम्यक् एव अस्ति महोदय.
सम्यक् अस्ति. उमा उमा मीनाक्षी भगिनी सम्यक् अस्ति वा?
हा सम्यक् अस्ति.
अस्तु. गीताञ्जलि भगिनी सम्यक् अस्ति. नरेश महोदय सम्यक् श्रूयते वा?
सम्यक् श्रूयते.
अस्तु. मधुसूदन महोदय
सम्यक्.
अस्तु. शुभा भगिनी
सम्यक् एव महोदय.
अस्तु अस्तु अस्तु. हा अतः हा यदि अस्तु. शीतल भगिनी पूर्णेन्दु महोदय क्षम्यतां, तत्र अहं न जानामि किमर्थं तत्र भवति, किन्तु यदि बहु समस्या अस्ति चेत् अन्या द्वारा वर्गं चालितुं चिन्तयामः. किन्तु इदानीं प्रायशः सम्यक् अस्ति इति मन्ये. अस्तु तर्हि
महोदय, मम द्वे प्रश्नः सः. तत्र संस्तुत्य इति स्तुति धातु अपि अस्ति किल? स्तौति अस्ति वा स्तुति अस्ति वा महोदय?
स्तुति इति रूपम् अस्ति भगिनि. तत्र स्तुतिः इति नाम पदम् अस्ति. क्रियापदं क्रियापदं नास्ति इति मन्ये. स्तुतिः इति पुल्लिङ्गपदम् अस्ति.
धातु अस्ति
न धातु अस्ति स्तु, क्रियापदम् अस्ति स्तौति.
अस्तु अस्तु महोदय. तत्र अनन्तरं प्रार्थितवान् इति भवान् उक्तवान् द्विकर्मधातुः, कथं जानामि धातु द्विकर्मकः अस्ति?
केवलं केचन धातवः एव सन्ति तत्र, विंशति अथवा चतुर्विंशति धातवः एव सन्ति द्विकर्मकधातवः. तत्र गीतासोपने द्वितीयभागे अस्ति इति मन्ये, अपि तत्र अन्यत् कुत्र अस्ति? हा तत्र द्वितीयभागे अस्ति इति मन्ये द्विकर्मकधातुविषये आयाति, द्वितीयभागे आयाति. हा प्रायशः चतुर्विंशति अथवा तावदेव, अधिक अधिक दातवः तादृशः नास्ति.
कोऽपि नियमः अस्ति वा महोदय तत्र?
नियमः किमपि नास्ति भगिनि, केवलं यत् तत्र परम्परया यत् आगतं तत्र अस्य धातोः कर्मद्वयम् अस्ति. तत्र प्रार्थना अस्ति चेत् तत्र कं प्रति अपि किम् इति प्रार्थना, अतः प्रश्नद्वयं भवति, कर्मपदं द्वयं भवति.
धन्यवादः.
तादृश एव पृच्छति इति, तदपि द्विकर्मकः अस्ति. कं पृच्छति किं पृच्छति इति, अतः अतः तत्र अर्थानुसारं द्विकर्मक इति मन्ये. कोऽपि उक्तवती, क्षम्यतां, कः आसीत् का आसीत्? अस्तु अस्तु तर्हि इदानीं तत्र वदतु भगिनि.
संस्तुत्य इति पदस्य अर्थः कः महोदय?
स्तुतिः करोति इति, स्तुतिं करोति इति, प्रेज़् प्रेज़् इति, यूलजैज़् यूलजैज़् प्रेज़् इति, तदेव स्तुतिः इति. येन वयं येन सर्वे येन पुरुष येन कोऽपि स्तौति सः तद् तद् सः अस्ति स्तुतिः इति. यथा तत्र श्लोकः अथवा किं श्लोकः इव, किन्तु स्तुतिः विष्णुस्तुतिः वा किमपि तत्र, तस्मिन् किम् अस्ति तत्र वयं तत्र तस्य स्तुतिं कुर्मः इत्युक्ते यः पठति सः देवं स्तौति. तावदेव. तत्र स्तुतिः इति रूपं नामपदम् अस्ति. वदतु महोदय.
षोडश दातव सन्ति द्विकर्मकः.
षोडश. अस्तु.
दुहु याच पच दण्ड रुदि प्रत्यचि ब्रू शास् जी मतमुषाम् अपि च स्यात् नी धातु हृ धातु कृष् धातु वह धातु अस्ति इति षोडशदातवः सन्ति.
षोडश एव अस्तु महोदय.
षोडश
अस्तु.
प्रयोगविस्तर इति पुस्तकमस्ति तत्र
हेग्डे महोदयस्य वा.
हा 71 70 पेज् नम्बर् 71 मध्ये अस्ति.
धन्यवादः महोदय.
अस्तु प्रयोगविस्तरः अथवा विस्तारः.
विस्तरः सर् प्रयोगविस्तरः. द्विकर्मकवाक्येषु प्रयोगपरिवर्तनमिति अस्ति अष्टमध्ये.
अस्तु धन्यवादः महोदय. पेज् 71
महोदय.
अस्तु श्रीप्रिया भगिनी समीचीनं वा.
समीचीनं महोदय. अन्य प्रश्नः अस्ति महोदय.
वदतु भगिनि.
दृश् धातोः क्वा प्रत्ययम् अस्ति दृष्ट्वा एव महोदय. दृष्ट्वा संयोगः दृष्ट्वा उपसर्गस्य योजनेन संदृश्य भवितुम् अर्हति वा
इति मम तदपि भवितुम् अर्हति इति मन्ये भगिनि. तत्र तत्र पश्यति अपि तस्य त्वन्तरूपमपि दृष्ट्वा एव खलु. किन्तु एतत् प्रायशः समीचीनमेव अस्ति भगिनि. यत् भवता उक्तं तत् समीचीनम् इति मन्ये. अन्यप्रश्नः
महोदय. अत्र युधिष्ठिर स्वस्य कवचं विसृज्य वरायुधं निक्षिप्य इत्युक्ते कवचं त्यक्त्वा वरायुधं क्षिपति कृत्वा क्षिप्रं रथात् अवरुह्य इत्युक्ते अवतरति अपि च
भीष्मं पितामहं भीष्मं पश्यति
पश्यति अपि च
पद्म्याम् एव तत्र गच्छति. पद्म्याम् एव
तत्र गच्छति. अन्यैरपि राजनः तम् अनुसृत्य इत्युक्ते सर्वे जनाः तदेव कृतवन्तः.
तदेव सः एव तदेव कृतवन्तः. सत्यं भगिनि. तत्र तत्र अनुसृत्य तम् अनुसृत्य गतवन्तः इति तत्र ते अपि कवचानि कवचानां तत्र ते अपि कवचम् अथवा कवचानि विसृज्य सर्वायुधानि निक्षिप्य गतवन्तः इति न जानामि. किन्तु प्रायशः तम् अनुसृत्य इत्युक्ते पितामहम् अभिप्रेक्ष्य गतवन्तः इति मम चिन्तनं. ते किं कृतवन्तः इति तत्र सम्यक्तया न दत्तमस्ति इति मम मतम्.
किन्तु
सर्वे गतवन्तः इति
तस्य पूर्वस्य महोदय. तदनन्तरं अर्जुनः भूमौ स्थितं गाण्डीवं स्वीकृत्य धृतवान् इत्युक्ते धारणं करोति. यदि अर्जुनः गाण्डीवं धारणं करोति तदनन्तरं किमर्थं युधिष्ठिर सर्वं त्यक्त्वा अहं न
अवगच्छामि. सत्यं तत्र
विचित्रकालः अस्ति. यत्र एनिमि यः अस्ति तं प्रति गच्छन्ति जनाः आशीर्वादं प्राप्तुं.
किन्तु
तत्र भीमसेनः तत्र भीष्म तु पितामहः अस्ति खलु. अतः
किञ्चित् विरला अस्ति. विचित्रमस्ति अस्मिन् काले तु अहम् एतत् कर्तुं न चिन्तयामि एव. किं वैरी अस्ति न.
किन्तु तत्र प्रायशः तत्र सन्दर्भस्य सम्यक् अवगमनं न भवति तद् अङ्गीकरोमि. किन्तु तत्र विषयः कः इत्युक्ते तत्र ल्यभन्तरूपाणि अधिकानि सन्ति इति तावदेव. तावदेव तत्र तत्र विसृज्य निक्षिप्य अवरुह्य अभिप्रेक्ष्य इति तद् अत्र वाक्ये भवति तावदेव, वाक्यस्य मम मनसि किमपि महत्वपूर्णं नास्ति
महोदय. परन्तु तत्र महोदय तत्र अर्जुनः नष्टमोहः जातः, अतः तं तं गाण्डीवं स्वीकृत्य धृतवान्. परन्तु अत्र युधिष्ठिर नष्टमोहः न जातः.
अस्तु भगिनि, तदपि समीचीनचिन्तनमेव. अस्तु 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 हा अस्तु, तद् हा तत् समीचीन विवरणं भवति अत्र. अस्तु हा, धन्यवादः. हा अस्तु अस्तु, तर्हि तत्र किं कुर्मः, तत्र लेबन्तरूपस्य यद् इदानीं पठितवन्तः तस्य एकवारम् अग्रिमे पुटे यत् रूपाणि सन्ति तत् एकवारं पठामः, तदनन्तरं धातोः गणस्य विषये चिन्तनं कुर्मः वा, अथवा इदानीमेव तत्र धातोः विषये चिन्तनं भवेत् वा, किम्?
यथा भवान् वदतु.
अस्तु, अहं चिन्तयामि तत्र अत्र एकवारं पश्यामः लेबन्तस्य लेबन्तरूपं कीदृशम् अस्ति तत्र, यदि तत्र पेटर्न् किम् अस्ति इति तत्र अवगमनं भवति न वा इति पश्यामः, तदनन्तरं एकवारं पठामः. यथा वयं दृष्टवन्तः खलु त्वान्तरूपनिर्माणसमये तत्र धातोः द्विविधं वयं दृष्टवन्तः, एकम् आसीत् किं तत्र कीदृशं पट् धातोः त्वान्तरूपम् आसीत्, पठित्वा कीदृशधातु इति उक्तवन्तः वयं,
सेट्
सेट् इति तत्र इकारः आगच्छति इति, अपि गच्छति इति तत्र गत्वा इति रूपम् अस्ति, तत्तु अनिट् इति तत्र इकारः न आगच्छति इति द्विविध दृष्टवन्तः धातोः. अत्रापि तादृशं लेबन्तरूपे अपि तादृशः भवति वा, अग्रिमे पुटे पश्यामः तद् एकवारं सर्वे वयं सर्वे पश्यामः तत्र एकवारं कोऽपि. नरेश् महोदय तत्र पठति वा तत्र लेबन्तरूपं, तत्र उपसर्गसहितक्रियापदम् अपि तस्य लेबन्तरूपं महोदय, नरेश् महोदय अग्रिमे पुटे, अग्रिमे पुटे 135 मध्ये. त्वान्तरूपं मास्तु, केवलं लेबन्तरूपं.
गच्छति आगत्य, गच्छति आगच्छति आगत्य, आनयति आनीय, करोति उपकृत्य, विस्मरति विस्मृत्य, विलिखति विलिख्य, विक्रमीते विक्रीय, विजानीति विजानाति,
विज्ञाय विज्ञाय
विज्ञाय, संस्थापयति संस्थाप्य, प्रेषयति सम्प्रेष्य.
हा इति तावत् पर्यन्तं, धन्यवादः महोदय. तत्र किं चिन्तनं, तत्र नयति इति नीत्वा इति रूपम् अस्ति, गच्छति गत्वा इति अस्ति, तत्र नीत्वा इति सेट् अस्ति इति तत्र इकारः अस्ति, लेबन्तरूपे अपि इकारः आगच्छति वा, आनयति इति आनयति इति तत्र लेबन्तरूपं किमस्ति, आनीय इति इकारः अस्ति खलु, इकारः अस्ति, अपि गच्छति गत्वा अस्ति तत्र इकारः नास्ति, आगच्छति तत्रापि इकारः नास्ति, आगत्य एव इति अस्ति. हा अपि तत्र विक्रीणीते इति क्रियापदमस्ति, तस्य लेबन्तरूपमस्ति विक्रीय, अपि विक्रीणीते इति तत् आत्मनिपदे धातु अस्ति, विक्रीणाति इति अपि अस्ति खलु, सर्वे जानन्ति खलु विक्रीणाति इति, तदपि तस्य क्रियापदस्य अपि ल्यबन्तरूपम् अस्ति विक्रीय एव. अतः विक्रीणेते वा विक्रीणाति वा ल्यबन्तरूपं समानं विक्रीय एव भवति.
भाषते इत्यस्य भाषित्वा भवति, सम्भाषते इत्यस्य सम्भाष्य लेबन्तरूपं, तत्र इकारः न आगच्छति.
अस्तु भगिनि, तत्र ईकारस्य विषयम् इदानीं चर्चा. अस्तु अस्तु भगिनि, अतः तत्र भवती किं चिन्त्य, भवत्याः चिन्तनं किं, तत्र ईकारः त्वान्तरूपे आगच्छति किन्तु लेबन्तरूपे न आगच्छति इति वा इदानीं?
तथापि भवेत् अस्मिन् पुटे अधोभागे भाषते वर्तते
तयोः
त्वान्तरूपे इकारः अस्ति,
इकारः नास्ति. समीचीनं भगिनि, अस्तु हा समीचीनं. तत्र यत् गच्छति अपि नयति दृष्ट्वा यत् पाटन् अस्ति इति ऊहा कृतवन्तः, तत् समीचीनं नास्ति इति खलु. अस्तु भगिनि, समीचीनं. अतः तत्र अधिकं ज्ञानम् आवश्यकं खलु, धातोः रूपं कथं भवति इति खलु. हा अतः गणः इति तद् तस्य आवश्यकता अस्ति. अतः तत्र सः एव इदानीं कुर्मः, तत्र नो चेत् तत्र कीदृशरूपं भवति इति तत्र वयं किं तत्र किञ्चिदेव ज्ञानं प्राप्तुं शक्नुमः तत्र धातोः विषये. तत्तु बहु विस्तारविषयः अस्ति, किन्तु गणः दशगणाः सन्ति इति अपि तयोः भेदः कः, एकस्य गणस्य द्वितीयगणस्य तयोः मध्ये कः भेदः, यदि धातु पश्यामः तत्र स्वीकुर्मः तद् कस्य गणे भवति कस्मिन् गणे भवति इति वक्तुं शक्नुमः इति तादृशज्ञानम् अस्ति चेत् बहु लाभः अस्ति. अतः तत् कुर्मः इदानीं. तत्र इदानीं जानीमः तत्र अनेकानि रूपाणि सन्ति, तत्र लेबन्तम् अस्ति चेदपि तत्र सर्वदा त्वान्तरूपं दृष्ट्वा लेबन्तरूपं कर्तुं शक्नुमः इति नास्ति. इकारः अस्ति चेदपि इकारः गच्छति इति यथा शिवभगिन्या उक्तं तादृशं भवति इति कृत्वा गणविषय एव इदानीं पश्यामः. तत्र ईमेल् द्वारा अहं स्वरूपमहोदयस्य लिङ्क् प्रेषितवान्, सर्वे प्राप्तवन्तः वा तद्? हा अस्तु, इदानीम् अतः तत्
पश्यतु.
ईमेल् मध्ये भगिनि, तत्र प्रथम अथवा द्वितीयवाक्ये एव अस्ति एतत्, इफ् टैम् पर्मिट्स् इति किमपि आसीत् तत्र लिङ्क्ड् हियर् इति अस्ति. हा तत्र केवलं संस्कृतं व्याकरणं यत् स्वरूपमहोदयस्य मूलपुटम् अस्ति भगिनि, तत्र प्रथम शुभभगिनी प्राप्तवती वा?
अद्य एव भवान् प्रेषितवान्
वा? अत्र तत्र स्मारणपत्रम् अस्ति खलु भगिनि, तत्र
लिङ्क्
लिङ्क् हियर् इति यदस्ति तत् क्लिक् करोतु तावदेव. अस्तु अस्तु तर्हि, तत्र स्वरूपमहोदय सरलसंस्कृतेन तत्र विवृणोति धातुगणस्य विषये, तत् पठामः, बहु लाभः अस्ति अत्र. तत्र अस्तु आरम्भं, तत्र मधुसूदन महोदय भवान् पठितुम् इच्छति वा अत्र?
आं महोदय.
हा तत्र धातुगणपरिचयः इति.
धातुगणपरिचयः, ये जनाः धातुगणानां विषये न जानन्ति अथवा न्यूनं जानन्ति ते एतं धातुगणस्य परिचयः पाठम् अवश्यं पठेयुः. अत्र न केवलं गणस्य अपि तु गुणस्य परिचयः अपि भवति. गुणः कश्चन विशेषः शब्दः पारिभाषिकः शब्दः व्याकरणे. अत्र गुणस्य परिचयः दीयते. अतः अयं विषयः नूतनः चेत् पाठम् अवश्यं पठतु. अस्मिन् पाठे चत्वारः अध्यायाः सन्ति. प्रथम अध्याये धातुगणाः के इति सूच्यते. द्वितीयः अध्याये धातुगणम् अनुसृत्य कथं तिङन्तपदं निर्मीयते इति विषये
क्षम्यतां चर्चा.
तृतीये अध्याये गुणस्य परिचयः भवति. तत्र गणगुणयोः सम्बन्धः कः इत्यस्मिन् विषये अपि चर्चा भवति. चतुर्थे अध्याये सम्पादितं ज्ञानम् अवलम्ब्य गणानाम् अभ्यासः क्रियते.
हा इति धन्यवादः महोदय. धन्यवादः. हा अस्तु, तत्र बहु समीचीनमेव अस्ति. तत्र को अस्तु, तत्र कः विवृणोति किं स्वरूपमध्ये लिखित् तत्र वक्तुमिच्छति इति? तत्र शुभा भगिनी वक्तुमिच्छति वा तत्र
विवरणं वा महोदय?
हा, सर्वे अवगच्छन्ति इति मन्ये, किन्तु एकवारं तत्र किं किम् अस्ति. तत्र वयम् अभ्यासद्वयं कर्तुं शक्नुमः, धातुगणस्य विषये अपि ज्ञानं प्राप्तुं शक्नुमः, अपि संस्कृतस्य अपि अभ्यासं कर्तुं शक्नुमः खलु. तत्र किं किम् अस्ति इति
ये जनाः धातुगणानाम् इत्युक्ते षष्टि बहुवचने ये न जानन्ति अथवा न्यूनं जानन्ति, किञ्चित् जानन्ति, ते एतं धातुगणस्य एतस्य धातुगणस्य
एतम् एतं धातुगणस्य एतं पाठम् एतं पाठं
एतं पाठं धातुगणस्य परिचयपाठम् अवश्यं पठेयुः. पठेयुः इत्युक्ते
पठेयुः इति विधिलिङ्ग अस्ति, रूपं न जानीमः एतावत्, किन्तु तत्र एतं पाठं कीदृशपाठं? धातुगणस्य परिचयपाठम्.
आम्.
हा, अपि तत्र कीदृशवाक्यमस्ति अत्र? ये अस्ति एकवाक्यमस्ति, तदनन्तरं ते इति अस्ति, अन्यत् भागम् अस्ति, तत्र यः सः इति
ये जानन्ति
ते एतत् हा इति एते यः सः इति अत्र एते इति तादृशरूपम्. अस्तु, समीचीनं भगिनि. हा अग्रे.
अत्र न केवलं गणस्य एव न, अपि गुणस्य परिचयः अपि भवति पाठं पठति. गुणः कश्चन विशेषः शब्दः. गुणः इति पदं विशेषः शब्दः इति दत्तम्.
विशेषः शब्दः इत्युक्ते पारिभाषिक इत्युक्ते तत्र शास्त्रीय अथवा टेक्निकल् वर्ड् इति केवलं गुणः इति यत् वयं चिन्तयामः तादृशः नास्ति, तस्य अर्थः किञ्चित् भिन्नः अस्ति इति. अतः पारिभाषिकशब्दः पदं जानीमः किन्तु तस्य अर्थ नूतन अर्थः भवेत् इति. अग्रे पठितुं
गुणस्य परिचयः दीयते, गुणस्य परिचयः दत्तं,
तदपि भवति, तदपि दद्मः अग्रे.
अतः अयं विषयः एतं विषय एषः विषयः इति अयं विषयः
एषः विषयः
नूतनः चेत् पाठम् अवश्यं पठतु. अस्मिन् पाठे
यदि यदि अयं विषय एतं विषयं न जानीमः तस्य परिचयं न अभवत् एतत् पाठम् अवश्यं पठतु.
अस्मिन् पाठे
पठतु इति लोट्लकरूपम्.
अस्मिन् पाठे सप्तमी विभक्तिरूपं विशेषणं अस्मिन् चत्वारः अध्यायाः अध्यायाः चत्वारः सन्ति इति. प्रथमे अध्याये तत्रापि अध्याये सप्तमी विभक्तिरूपं प्रथमे अपि विशेषणं सप्तमीविभक्तिरूपं धातुगणाः के इति सूच्यते.
धातु धातु इति जानीमः तस्य गणः गणः इत्युक्ते किम् इति गणं गणः इति किम् इति तस्य सूचना अग्रे दीयते.
द्वितीये अध्याये तत्रापि द्वितीय इति विशेषणं भवति सप्तमीविभक्तिरूपं धातुगणम् अनुसृत्य कथं
तिङन्तपदं तिङन्तपदं तिङन्तपदम् इत्युक्ते क्रियापदम् इति. तदपि पारिभाषिकशब्दः अस्ति तिङन्तम् इति. तिङन्तपदं क्रियापदं सुबन्तपदं नामपदं
तिङन्तपदं
क्रियापदम् अपि सुबन्तपदम् अस्ति चेत् तद् नामपदं भवति. तत्र ति इति तत्र तिङन्तपदम् इति क्रियापदस्य रूपं कीदृशं पठति हसति इति ति इति अन्ते अस्ति अतः तिङन्तम् अन्ते ति इति अथवा ति इत्यादि प्रत्ययाः इति तत्र तिङन्तम् अपि सु इति तत्र प्रथम रामः इति तत्र तत्र प्रत्ययः अस्ति प्रातिपदिकं योगः प्रत्ययः कृत्वा रामः शब्दः भवति तत्र सु इति प्रत्ययः अस्ति अतः सुबन्तम् इति नामकरणं भवति तावदेव.
आत्मनेपदे चेदपि तिङन्तम्
तदेव नाम अस्ति. सत्यं भगिनि सत्यं सत्यं
निर्मीयते इति विषये काचित् चर्चा
तत्र काचित् चर्चा का चर्चा काचित् चर्चा सर्टन् चर्चा भवति.
तृतीय अध्याये सप्तमीविभक्तिरूपं गुणस्य परिचयः तस्य परिचयः गुणस्य परिचयः भवति. तत्र गणगुणयोः सम्बन्धः गणगुणयोः इत्युक्ते षष्टिविभक्तिरूपं द्विवचनं
समीचीनं
सम्बन्धः कः कः सम्बन्धः इति
तयोः मध्ये कः सम्बन्धः इति
तयोः मध्ये कः सम्बन्धः इति अस्मिन् विषये अपि चर्चा भवति. चतुर्थे अध्याये सम्पादितं ज्ञानम् अवलम्ब्य गणानाम् अभ्यासः क्रियते. प्रथमद्वितीय तृतीय अध्याये अध्यायेषु ज्ञानः यद् ज्ञानं लभति तत् अवलम्ब्य अत्र चतुर्थे अध्याये अभ्यासः करणीयम्
कर्तुं शक्नुमः. तत्र तत्र किम् इत्युक्ते तत्र धातु दत्तमस्ति चेत् तस्य गणः कस्मिन् गणे एषः धातुः अस्ति इति तादृश ज्ञानं भवति इति. अतः तत्र अत्र दक्षिणभागे पश्यन्ति चेत् तत्र 01 इति अस्ति, वयं केवलं तत्र 01 भागस्य अध्यायस्य 1, 2, 3, 4 तावदेव कुर्मः. तदनन्तरं व्याकरणवर्गस्य उत्तरदायित्वम् अस्ति, तद् अस्माकं नास्ति. किन्तु तावत् कुर्मश्चेत् किञ्चित् ज्ञानं, यद् ज्ञानं भवति तत्र, अस्तु रूपस्य सर्वदा क्रियापदस्य एकमेव रूपं नास्ति, तत्र धातु भिन्ना अस्ति चेत् रूपभिन्नम् अपि भवितुमर्हति गणस्य कारणेन अथवा गुणस्य कारणेन इति मनसि भवति. तावदेव तादृशज्ञानार्थम् एतद् पठितुम् इच्छामः. अस्तु तर्हि सर्वे अवगच्छन्ति वा अस्मिन् पुटे यदस्ति, प्रश्नाः सन्ति वा? समीचीनमस्ति खलु. एतदेव स्वरूपमहोदयस्य शैली अस्ति, बहु सरलरीत्या सः लिखति अपि सः पाठयति. अस्तु अग्रे गच्छामः. धातुगणाः इति अस्तु, धातुगणाः इति अग्रिमे पुटे अस्तु. तत्र पूर्णेन्दुमहोदय पठति वा अग्रे, अग्रिमे पुटे प्रथम अध्यायः.
आम् महोदय. धातुगणः पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति. एते दशगणाः अधः सूचिताः सन्ति, परन्तु सर्वप्रथमं कानिचन नूतननामानि अस्माभिः ज्ञातव्यानि. कर्तरिप्रयोगस्य लट् लकारे क्रियापदम् आगत्रये विभज्यते. पठति पठ योग अयोग ति. पठ धातुः अर्थं निर्दिशति, अ विकरणप्रत्ययः गणं निर्दिशति, ति तिङ् प्रत्ययः लकारं निर्दिशति. अत्र सन्ति धातूनां दशगणः. पश्यतु कथं भिन्नगणेषु विकरणप्रत्ययाः भिद्यन्ते. वस्तुतः विकरणप्रत्ययानां भेदेन दशगणाः निर्मीयन्ते.
हा इति तावत् पर्यन्तं समीचीनं महोदय. अस्तु तत्र किं किम् अस्ति तत्र रघुपति महोदय अस्ति वा? प्राशरस गतवान्. अस्तु ओ अस्तु अस्तु हा हा रघुपति महोदय किञ्चित् वदति वा अत्र किम् अस्ति इति तत्र.
अत्र पाणिनीयधातुपाठे दशगणाः सन्ति, धातवः दशसु गणेषु विभक्ताः सन्ति. अत्र कर्तरि लट्लकारे क्रियापदं भागत्रये विभज्यते. प्रथमं तु धातुः अस्ति, अनन्तरं विकरणप्रत्ययः, अनन्तरं तिङ्प्रत्ययः लकारं निर्दिशति. यत् विकरणप्रत्ययः अस्ति तत् गणं निर्दिशति, कस्मिन् गणे अस्ति इति विकरणप्रत्ययं दृष्ट्वा वयं ज्ञातुं शक्नुमः. धातुः अर्थं निर्दिशति,
निर्दिशति इत्युक्ते पायिण्ट् औट् इति,
पायिण्ट् औट्
प्रदर्शयति इति, अथवा तद् ज्ञात्वा तद् जानीमश्चेत् विकरणप्रत्ययं जानीमश्चेत् कस्मिन् गणे अस्ति इति ज्ञातुं शक्नुमः इति. समीचीनं महोदय. अस्तु किं किं भगिनि
विकरणप्रत्ययः?
इदानीम् आगच्छति तत्र अग्रिम वाक्यं रघुपति महोदय तद् पठतु तत्र, यत् पूर्णेन्दु महोदय पठितवान् तत्र पश्यतु कथम् इति.
अत्र सन्ति धातूनां दशगणाः, पश्यतु कथं भिन्नगणेषु विकरणप्रत्ययाः भिद्यन्ते. वस्तुतः विकरणप्रत्ययानां भेदेन दशगणाः निर्मीयन्ते. विकरणप्रत्ययस्य कश्चन प्रत्ययः आगच्छति तिङ् प्रत्ययस्य मध्ये, तिङ् प्रति धातुगणस्य मध्ये, धातोः मध्ये आगच्छति
विकरणप्रत्ययः. समीचीनं महोदय. अतः तत्र शुभा भगिनी तत्र विकरणप्रत्ययः इति एकः स्वरः वा वर्णः वा किमपि अस्ति, सः धातुः यदा वयं क्रियापदं तस्य निर्माणं कर्तुम् इच्छामः तत्र धातु स्वीकुर्मः अपि कं लकारं कर्तुम् इच्छामः इति चिन्तयित्वा यदि लट् लकारः अस्ति चेत् तत्र अस्तु लट् लकारे वयं कीदृशक्रियापदं कर्तुम् इच्छामः तत्र प्रथमपुरुषे एकवचने अस्तु अतः तिङ् इति प्रत्ययः भवति पट् अपि ति इति स्वीकृत्य तद् मिलित्वा तद् पठति इति भवति किन्तु तत्र मध्ये लिक् अपि ति तत्र मध्ये लिखित्वा इति भवति खलु तत्र लिखति इति क्षम्यतां लिखित्वा इति न किं हा लिखित्वा न अन्यत् किमपि तत्र मध्ये तत्र शक् धातुः अस्ति ति इति भवति किन्तु तद् शक्ति इति नास्ति खलु शक्नोति इति भवति खलु हा अतः मध्ये यद् आगच्छति धातुः पश्यामः ति इति अन्ते भवति मध्ये यद् अन्यत् किमपि भवति तद् भवति विकरणप्रत्ययः इति अतः साधारणरूपम् अस्ति पट् योगः ति पठति यदि धातोः साधारणरूपं नास्ति चेत् मध्ये अन्यत् किमपि अस्ति तस्य कारणं तस्य भिन्नतायाः कारणम् अस्ति विकरणप्रत्ययः रूपस्य भिन्नतायाः कारणम् अस्ति विकरणप्रत्ययः इति विकरणप्रत्ययः कः इत्युक्ते तस्य आधारेण एव गणाः तस्य निर्माणं भवति तस्य विभजनं भवति धातु स्वीकृत्य अनेकाः धातवः अस्ति किं 2000 धातवः सन्ति इति मन्ये तत्र 2000+ अथवा समीपं 2000+ धातवः सन्ति तस्य विभजनं कुर्मः ग्रुपिङ्ग् कुर्मः गणः इति एकस्य यदि धातुद्वयम् एकस्मिन् गणे अस्ति चेत् तस्य क्रियापदरूपसामान्यं भवति अतः तत्र पठति इति रूपम् अपि शक्नोति इति क्रियापदस्य रूपं भिन्नम् अस्ति इति कृत्वा पट् धातोः गणः भिन्नः अस्ति शक् धातोः गणस्य इति अतः तत्र गणः विकरणप्रत्ययः इति एकम् अस्ति तदनुसृत्य गणः निर्मीयन्ते यदि धातुः अस्ति चेत् धातोः गणः कः इति दृष्ट्वा तस्य क्रियापदस्य रूपं कीदृशम् इति वक्तुं शक्नुमः अथवा ज्ञातुं शक्नुमः इति विषयः अत्र अस्तु अग्रे तत्र इदानीं प्रथमतया तत्र दशगणाः के इति विषयः अस्तु तत्र उमा मीनाक्षी भगिनी अस्तु तत्र एतावत् कः न पठितवान् पठितवती तत्र हा शीतल भगिनी पठति वा शीतल भगिनी
आं महोदय
हा तत्र भूवादि इति
भवादिः प्रथमः गणः भू इत्यादयः धातवः भवति इत्यादीनि क्रियापदानि यस्य गणस्य आदौ भू धातुः अस्ति सः भवादिगणः विकरणप्रत्ययः शप् अस्ति आहत्य अवतिष्ठति उदाहरणार्थे खाद् योगः अयोगः ति खादति पठ पठति क्रीड् क्रीडति वदति शुच् शोचति वृत् वर्तते जि जयति कृ स्रवति रु हरति
हा इति तावत् पर्यन्तं धन्यवादः भगिनि धन्यवादः हा अत्र किमस्ति तत्र भूवादिगणः इति पश्या इति वार्ता प्रथमगणः प्रथमधातुः प्रथमगणस्य प्रथमधातुः अस्ति भूधातुः भवति इति क्रियापदं तत्र अकारः इति विकरणप्रत्ययः अस्ति. नाम तत्र खाद् इति धातुः अस्ति चेत् खाद् योगः ति, तत्र खाति इति नास्ति खलु, तत्र खादति इति अस्ति. अतः मध्ये अकारः अस्ति, सः एव विकरणप्रत्ययः. तत्र शप् इति अस्ति, तत्र व्याकरणे तत्र बहु किमपि अस्ति, किन्तु लघुरूपेण वदामि. तत्र शप् इति अस्ति चेत् तत्र पकारः गच्छति, शप् मध्ये तत्र इष् योगः अकारः इति, शु अपि गच्छति तत्र इत्संज्ञा इति कृत्वा, तत्र केवलम् अकारः इति स्वरः भवति. तत्र हा बहु किमपि तत्र वक्तुं शक्नुमः, किन्तु मास्तु इदानीं. तत्र अकारः इति विकरणप्रत्ययः इति चिन्तयामः. विकरणप्रत्ययः अकारः इति, अतः तद् मध्ये आगच्छति. तत्र खाद् योगः अकारः, योगः ति खादति, पट् योगः अकारः, योगः ति पठति, क्रीड् योगः अकारः, योगः ति क्रीडति. किन्तु शुच् योगः अकारः, योगः ति, तत्र किं भवति? शुचति इति रूपम् अस्ति वा? शोचति इति अस्ति. हा, अतः तत्र किं भवति? तत्र वार्ता का इत्युक्ते, तत्र केवलं विकरणप्रत्ययस्य ज्ञानम् एव समाप्तम् इति, पर्याप्तम् इति न, तत्र गुणः इति किमपि भवति. तत्र गुणः कुत्र भवति इति अपि अग्रे पश्यामः, किन्तु किञ्चित् वदामि अत्र. तत्र धातुः अस्ति चेत् तत्र यथा वयं नामपदस्य निर्माणे वयं किं कुर्मः, अस्तु अकारान्तरामपदम् अथवा आकारान्तलतापदम् अथवा ईकारान्तदेवीपदम् इति अन्तिमवर्णः पश्यामः. अत्रापि धातुः विषये अपि, धातोः विषये अपि अन्तिमवर्णस्य महत्त्वम् अस्ति. यदि हलन्तधातुः अस्ति वा अथवा अजन्तधातुः अस्ति वा इति, तत्र तत्र खाद् इति धातुः, तत् अन्ते ध इति अस्ति, क्रीड् तत्र ढकारः अस्ति, वद् इति दकारः अस्ति, तादृश तदपि अस्ति. एकम् अपि अन्तिमवर्णस्य पूर्वं तत्र शुच् इति अस्ति चेत् तत्र अन्ते चु छ चकारः अस्ति, इच् इति अस्ति, किन्तु तस्य पूर्वं स्वरः अस्ति, उकारः अस्ति. तत् उपाधि इति, उपधि उपधा उपधा इति, उपधा इति नाम अस्ति, तस्य अपि महत्त्वम् अस्ति. अग्रे पश्यामः. अतः तत्र शुच् इति उकारस्य ओकारः भवति, सः एव गुणः. अपि वृत् इति तत्र अन्ते इति अस्ति, किन्तु तस्य पूर्वं ऋकारः अस्ति, वृ इति, ऋकारस्य परिवर्तनं भवति, वर्तते इति. अपि झि इति तत्र जयति, सृ इति तत्र उकारः अस्ति तद् भवति बकारः, हृ इति हर् इति भवति. अतः तत्र बहु किमपि कार्यमस्ति, किन्तु लघुरूपेण एतादृशपरिचयं प्राप्तुं शक्नुमः. अतः एतत् अभ्यासं कर्तुं समीचीनम् इति मन्ये. अस्तु, अग्रे तत्र एतावत् कः अस्तु. शोभा भगिनी अग्रे पठति वा द्वितीयम्?
हा महोदय. अदादिः द्वितीयः गणः, अद् इत्यादयः धातवः, अत्ति इत्यादीनि क्रियापदानि, विकरणप्रत्ययः नास्ति, शप् इत्यस्य लुक् लोपः, उदाहरणम् अस् अस्ति, हन् हन्ति, वच् वक्ति, आस् आस्ते, शि शेते.
तत्र सत्यमस्ति खलु भगिनि, तत्र अस् असति इति न वदामः खलु, तत्र मध्ये अकारः नास्ति.
हा, तत्र तत्र विकरणप्रत्ययस्य लोपः भवति, विकरणप्रत्यय कार्यं
तत्र तस्य कार्यं नास्ति,
कार्यं नास्ति इति कृत्वा अस् योगः ति अस्ति एव भवति.
हा, अपि तत्र हन् अपि हन्ति, किन्तु तत्र वच् तत्र किमर्थं तत्र चकारः ककारः भवति इति, तत्र किमपि कार्यम् अस्ति, किन्तु तत्र ज्ञातुं शक्नुमः तत्र अकारः मध्ये न आगच्छति, तत्र कोऽपि अकारः नास्ति हा इति तावदेव वार्ता. अस्तु समीचीनम्. अस्तु अग्रे तत्र उमा मीनाक्षी भगिनी अग्रे पठति वा तृतीयः?
ओके. जुहोत्यादि तृतीयः गणः हु इत्यादयः धातवः जुहोति इत्यादीनि क्रियापदानि.
हा भगिनि, इदानीं तत्र एतद् अहं पूर्वं कर्तुं विस्मृतवान्, किन्तु यथा भुवादिगणे तत्र अन्ते वाक्यम् अस्ति, भुवादिगणे तस्य विवरणस्य यस्य गणस्य आदौ भू धातुः अस्ति सः भुवादिगणः इति, तादृश ज्योत्यादिगणस्य वाक्यं वदतु.
हु
न जुहोत्यादिगणः कीदृशगणः यस्य गणस्य
यस्य गणस्य
आदौ
यस्य गणस्य आदौ हु
धातुः अस्ति, हु धातुः अस्ति, आदौ आदौ इति सः
जुहोत्यादिगणः.
तत्र किं भूधातुः भूवादिगणः
धातु तु हु अस्ति, कुतः जुहोति आगतं न जानामि.
तत्र रूपं तादृशम्
अस्ति तत्र.
हा तत् नामकरणं पूर्वमेव जातं. हा हा अत्र क्रिया हा अत्र विकरणप्रत्ययः कः अस्ति तत्र?
विकरणप्रत्ययः नास्ति.
अत्रापि विकरणप्रत्ययः नास्ति, किन्तु लक्षणम् इति दत्तमस्ति, तत् किमस्ति?
धातोः द्वित्वं.
हा धातुः अस्ति हुकारः, किन्तु क्रियापदं किं भवति? जुहो इति. इदानीं तत्र अन्यत् उदाहरणम् अत्र
दा.
हा
उदाहरणं
दा इति धातुः, किन्तु क्रियापदस्य रूपं ददाति इति.
ददाति ददाति न
किन्तु ददाति इति. अपि धा इति धातुः
धा इति धातुः दधाति.
हा भी इति
अनन्तरं भी बिभेति.
हा
हा जहाति.
हा इति अत्र
कथं परिवर्तनं भवति तस्मिन् विषये किमपि न दत्तं.
न दत्तं यदि यदि भगिनि तत्र यदि एकमेव स्वीकुर्मः तस्य विवरणं कर्तुम् इच्छामः चेत् एकमेव पुस्तकं भवति तत्र. एकवर्षं न वर्षद्वयं यावत् तस्य चर्चा कर्तुं शक्नुमः.
पठामः.
अतः केवलं लघुरूपेण दशगणाः सन्ति, तेषां किञ्चित् विवरणं तावदेव, नामकरणम् अपि किञ्चित् परिचयः. अस्तु अग्रे श्रीप्रिया भगिनी.
महोदय एकः प्रश्नः, धा ब्रह्माप्राण धा धातोः अर्थः
न तत्र एकनिमिषम् अहं वदामि भगिनि. तत्र धा धातोः तत्र किम् अस्ति, तत्र अहं कुत्रापि लिखितवान् ददाति इति. ओ एकनिमिषः भगिनि, तत्र वदामि. तत्र धा धातुः
धारण
वा
धारणे.
ओ अस्तु अस्तु अस्तु,
धारणपोषणयोः.
हा 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 अस्तु. तत्र पुट् इति हा पुट् इति मया लिखितमस्ति तत्र. हा धा धातु धातु
धातु एव वा समानमेव वा
धरति इति प्रायशः एकः अर्थः तादृशः अस्ति इति मन्ये. हा किन्तु तत्र यदि केवलम् एकः एव अर्थः इति नास्ति खलु भगिनि क्रियापदस्य. अत्र प्रायशः धरति अपि ददाति तयोः मध्ये एकः अर्थः समानः अस्ति, किन्तु हा प्रसङ्ग अनुसारम् अर्थभेदः अपि भवितुम् अर्हति तत्र. किन्तु जहाति तद् अस्ति लूस् लीव् इति तादृश अर्थे त्यजति इति अर्थे अस्तु
दिवादिः चतुर्थः गणः दिव् इत्यादयः धातवः दीव्यति इत्यादीनि क्रियापदानि
तत्र दिवादिगणस्य वाक्यं तत्र यत् भूवादिगणस्य आसीत् तादृशवाक्यं वदति वा
यस्य गणस्य आदौ दिव् धातुः अस्ति सः दिवादिगणः
सः दिवादिगणः समीचीनं भगिनि अस्तु
विकरणप्रत्ययः ष्यन् अस्ति षकारस्य नकारस्य लोपः भवति यकारः य एव अवश्यते उदाहरणार्थं नश् नश्यति नृत् नृत्यति कुप् कुप्यति क्रुद् क्रुध्यति तुष् तुष्यति मन् मन्यते विद् विद्यते
इति अतः तत्र सर्वत्र यकारः अस्ति खलु अतः इदानीम् अस्माकं मनसि किं भवितव्यं तत्र यत्र यकारः अस्ति धातोः मध्ये क्रियापदस्य मध्ये प्रायशः ते सर्वे समानरूपक्रियापदानि इति चिन्तनं भवितुम् अर्हति खलु अतः इत्युक्ते एकस्मिन् एव गणे ते सर्वे भवितुम् अर्हन्ति इति समीचीनं भगिनि अस्तु धन्यवादः तत्र समयः जातः किन्तु तत्र वयं चतुर्थगणपर्यन्तम् अद्य कृतवन्तः किन्तु तत्र दशगणाः सन्ति अग्रिमवर्गे एतदेव कृपया पठन्तु तत्र अग्रे पठन्ति चेत् अपि लाभः एव तदेव कुर्मः वर्गे अपि किन्तु बहु समीचीनमस्ति बहु लाभः अस्ति एतस्य ज्ञानस्य आधारेण तत्र ल्यबन्तरूपं कीदृशं क्वान्तरूपं कीदृशं किमर्थं तत्र भेदः भवति इति तत्सर्वं किञ्चित् तस्य अवगमनं भवति इति मन्ये अस्तु तर्हि अस्मिन् विषये यावत् कृतवन्तः तस्मिन् विषये प्रश्नः अस्ति वा
महोदय मम एकः प्रश्नः अस्ति
वदतु भगिनि
भवान् उक्तवान् सेत् गच्छति गत्वा इति भवति खलु
तत्र ईकारः नागच्छति इति तत्र अत्र धातोः विषये तत्र एकः उत्तम रिसोर्स् अस्ति तत्र अष्टाध्यायी डाट् काम् मध्ये धातोः आवळि दत्तमस्ति खलु तत्र गच्छति चेत् कोऽपि धातुः स्वीकरोतु तत्र पश्यति चेत् तत्र परस्मैपदी वा उभयपदी वा इति दत्तमस्ति तदनन्तरं सेट् अथवा अनिट् इति पदं भवति सेट् अस्ति चेत् तत्र स योगः इट् इति इडागमः भवति इत्युक्ते तत्र क्वान्तरूपे ईकारः आगच्छति अपि अन्यत्र अपि भवितुम् अर्हति किन्तु इकारः तत्र आगच्छति इति अस्ति अपि अनिट् अस्ति चेत् इकारः न आगच्छति इति अतः पठति अनिट् पठति सेट् अस्ति पठित्वा इति भवति गच्छति इति अनिट् अस्ति गत्वा इति रूपं भवति तावदेव सरलरूपं तत्र सूत्रं किमर्थम् एतद् भवति एतत् सर्वं व्याकरणस्य विषयः किन्तु लघु ज्ञानं भवतु इति तावदेव अत्र एतद् गणः विषये अपि तत्र अष्टाध्यायी डाट् काम् मध्ये गणः अपि दत्तः भवति खलु यदि धातुः तत्र स्थापयामः गणः ददाति तत्र अतः अस्तु अन्यप्रश्नः अस्ति वा एतत् सम्यक् अस्ति वा सर्वे एतत् विषयः सन्तोषजनकः विषयः अस्ति वा तत्र धातुगणस्य विषयः अस्तु 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 अतः तर्हि एतदेव एषः विषयः एव अग्रिमवर्गे भवति तत्र केवलं चत्वारः अध्यायाः तावदेव अस्तु तर्हि विरमाम तर्हि. सर्वेभ्यो नमः. अग्रिमे वर्गे मिलामः. धन्यवादः. नमस्कारः.
धन्यवादः.
नमस्कारः
महोदय.